इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी गतरात्रौ ब्रिटेन मालदीव्स देशयोः यात्रायाः प्रथमचरणे ब्रिटेन देशम् आर्छत्। यात्रायाः प्रथमचरणे श्रीमोदी ब्रिटेनस्य प्रधानमन्त्री कियर स्टार्मर इत्यनेन सह वार्तालापं विधाय किंग चार्ल्स तृतीयेन सह मिल्यात्। अत्रावधौ मुक्त व्यापार समन्वये हस्ताक्षराणि च भूयासुः। अपि च उभय देशयोः अर्थव्यवस्थासु अस्य सकारात्मकः प्रभावः भविष्यति। स्वाधिकारिक यात्रावधौ यदा मोदी स्वस्य वासस्थानम् अगच्छत् तदा तं द्रष्टुं प्रतीक्षमाणाः भारतीय प्रवासिनः तस्य सोत्साहेन स्वागतम् अकुर्वन्। भारतस्य विभिन्नानां राज्यानां संगीतं सांस्कृतिक सैनिकाः अवादयन्। तदा जनसमूहः तस्य जयघोषम् अकुर्वन्। प्रधानमन्त्री जनैः सह हस्तमेलनं च अकरोत्। अवधेयास्पदं वर्तते यत् भारत यूके देशयोः ऐतिहासिक सम्बन्धः दृढः बहुपक्षीयः परस्पर लाभप्रदत्वेन च परिवर्तितोऽस्ति। उभौ देशौ उच्चस्तरीयं राजनैतिकं संवादमपि नैरन्तर्येण सम्पाद्यमानौ स्तः। स्वतन्त्र व्यापार सन्धिः FTA इत्यस्योपरि हस्ताक्षरानन्तरं सम्बन्धोऽयम् इतोऽपि दृढतरः भविष्यति इति अपेक्षते। सन्धौ व्यापार रक्षादीनि अनेकानि क्षेत्राणि सम्मिलितानि सन्ति। चतुर्दशोत्तर द्विसहस्रतमवर्षात् परं युनाइटेड किंगडम्स देशं प्रति श्रीमोदिनः एषा चतुर्थी यात्रा अस्ति, यत्र सः स्वस्य ब्रिटिश समकक्षेण सह विस्तृतं संवादं करिष्यति। केन्द्रीय सूचना प्रसारण राज्यमन्त्री डॉक्टर एल मुरुगन वर्यः अवदत् यत् सर्वकारेण सर्वेषु राज्येषु आकाशवाणी दूरदर्शन केन्द्राणां DDK इत्यस्य आधुनिकीकरणस्य विस्तारस्य च उपायाः सुनिश्चिताः। लोकसभायां लिखिते प्रत्युत्तरे डॉक्टर मुरुगन वर्यः अवोचत् यत् केन्द्रीय क्षेत्रस्य प्रसार अवसंरचना नेटवर्क विकास इत्यस्याः योजनायाः अन्तर्गतं केन्द्राणि उन्नतीकृतानि सन्ति इति। अस्मिन् सार्वजनिक प्रसारणं सुदृढं कर्तुं बिहारं समेत्य अशेषे हि देशे प्रमुखोन्नतीकरणम् अन्तर्भवति। भारतीय ऋतु विज्ञान विभागेन अद्य जम्मू कश्मीर लद्दाख मुजफ्फराबाद इत्येतेषु प्रदेशेषु विद्युत वायुभ्याम सह प्रचण्ड वृष्टये नारंग सूचना दत्ता अस्ति। अनेनैव सह अद्य हरियाणा बिहार गुजरात चंडीगढ़ दिल्ली हिमाचल प्रदेश इत्यादिषु पृथक पृथक स्थानेषु प्रचण्डतः अति प्रबल पर्यन्तं वर्षायाः पूर्वानुमानं कृतम्। चतुरंग क्रीडायां भारतस्य दिव्या देशमुखः 25+2000 फिडे महिला विश्वकप क्रीडायाः उपान्त्यचक्रस्य क्रीडायां चीन देशस्य तान झोंगई इत्येनं पराजित्य ह्यः जॉर्जिया देशस्य बटुमी नगरे अंतिम स्पर्धायां स्थानं प्राप्तवती। भारतस्य एषा प्रथमा महिला अस्ति या एताम् उपलब्धिं प्राप्तवती। अपि च क्रिकेट क्रीडायां अद्य मैनचेस्टर नगरस्य ओल्ड ट्रॉफोर्ड क्रीडायां एंडरसन तेंदुलकर ट्रॉफी श्रृंखलायाः चतुर्थ टेस्ट क्रीडायाः द्वितीय दिने भारतम् आतिथेय इंग्लैंड देशस्य विरुद्धं पुनः क्रीडा आरभेत। भारतीय मानक समयानुगुणं सायं 3:30 क्रीडा आरभ्यते। यदा अन्तिमानि विवराणि प्राप्तानि तावत् भारतं विनैव हानिना 78 धावनांकान् व्यरचयत् इति वार्ताः।